राम गीता जी का पाठ पांचवा अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुतं हंसदानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कायेन मनसा बोध्या केवलेन्द्रियैरपि योगिनः कर्म कुर्वन्ति साङ्गं त्यक्त्वात्मशुद्धये योक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयोक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनुषा सन्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्त्रे त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नाद्यते कस्य चेत् पापं न चैव सुकृतं विभो अज्ञानेनावृतं ज्ञानं तेन मोह्यन्ति दन्तव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषामादेत्य वज्ञानम् प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा गच्छान्त्य पुनरावृत्ति ज्ञाननिर्भूतकर्मसा विद्या विनय सम्पन्ने ब्राह्मणे गविहस्तिनी सुनितैव स्ववाकेच पण्डिताः समदर्शिना इहैव चैर्जितः सर्गो ईशं साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म अस्माद्ब्रह्मणि ते स्थिता न प्रहृष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबोद्धिरसमोहो ब्रह्म विब्रह्मणि स्थित न प्रहृष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबोद्धिरसमोहो ब्रह्म विब्रह्मणि स्थित
वसुदेव सुतं देवं हंसदानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरिशरणं 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 हरे शरणम् हरि 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 शरणम् Hare Saranam, 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 Hare Saranam.